श्री गणेशाय नमः। ॐ अस्य श्री शिवरक्षास्तोत्र मंत्रस्य याज्ञवल्क्य ऋषिः श्री सदाशिवो देवता अनुष्टुप छन्दः श्री सदाशिव प्रीत्यर्थं शिवरक्षास्तोत्र जपे विनियोगः।
चरितं देवदेवस्य महादेवस्य पावनम् अपारं परमोदारं चतुर्वर्गस्य साधनम् त्रिनेत्रकं शिवं ध्यात्वा दशभुजं शिवरक्षां पठे नरः। गंगाधर शिरः पातु भागं वर्धेन्दुशेखरः नयने मदनध्वंसी कर्णो सर्पविभूषणः जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः। श्रीकण्ठः पातु मे कण्ठं सन्धौ विश्वधुरन्धरः ध्रुवः भूभारसंहर्ता करौ पातु पिनाकधृत्। हृदयं शङ्करः पातु कटिं व्याघ्राजिनाम्बरः। षष्ठनी पातु दीनाथ शरणागतवत्सलः। पुनः महेश्वरः पातु जानुमी जगदीश्वरः। जङ्घे पातु जगत्कर्ता गुल्फो पातु गणाधिपः। सर्वाङ्गानि सदाशिवः। एतां शिवमनोवेतां रक्षां यः सुकृतिं पठेत् स भुक्त्वा सकलां कामान् शिवसायुज्यमाप्नुयात्। ग्रहभूतपिशाचाद्याः त्रैलोक्ये विचरन्ति ये दुरादाशु पलायन्ते शिवनामाभिरक्षणात्। अभयङ्करनामेदं कवचं पार्वतीपते भक्त्या विभर्ति यः कण्ठे तस्य पश्यं जगत्त्रयम्। इमां नारायणः स्वप्ने शिवरक्षां यथा दिशत् प्रातरुत्थाय योगिन्द्रो याज्ञवल्क्यस्तथा लिखत्।
इति श्री याज्ञवल्क्य प्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम्।